वैदेवदन्तः प्रभजम् वदामग्रावभ्यो वाचम् वदतावदभ्यः यदद्रजः पर्वताश्वाकमाधवश्लोकम् घोषम् भरतेन्द्राय सोमिनाः एते वदन्ति शतवत्सहस्रावदभिक्रन्दन्ति हरितेऽभिरासभिः विष्णीप्रावारः सुकृतः सुकृत्य जाहोतश्चित्पूर्वेव विरद्यमासत एते वदन्ति वीदन्ननामधन्योङ्खयन्ते अधिपत्वामीषि वृक्षस्य साकामरुणस्य वत्सतस्ते सुभर्वाविषभा प्रेमराविषुः विगद्वदन्तिमधिनेन मन्दिरेन्द्रम् क्रोशन्तो विदन्ननामधु संरभ्याधीरास्तुभिरणत्रिराघोषयम् पृथिवीमो बब्धिभिः स्मरणादमक्रतो बद्यव्या खरे कृष्णायुषिरानक्तिषो ज्ञा अन्वियम् चुपरस्य निकृतमुरूरेतो दधिरे दूर्यस्मिताः उग्राजीव प्रवहन्तः समायामः साकम् युक्ता मृडा नो बिभ्रतो धुराः यच्छसन्तो जग्रदाना अराः विनशृण्वलेषाम् प्रोदतो अर्वतामिव दशावनेभ्यो दशा कक्ष्येभ्यो दशा योक्त्रेभ्यो दशा योजनेभ्यः दशाभीरुभ्यो अर्चताजरेभ्यो दशधुरो दशा युक्तावहद्भ्यः ते अत्र ज्योतसा यन्द्रास आसवस्तेषाः माधानम् पर्येति हर्यतम् प्रभूषतस्य सोम्यस्यान्ध सोन्द्रोऽप्येयूढम् प्रथमस्य भेजिरे ते सोमादो हरि इन्द्रस्य निंसतेम् संसुहन्तो अध्यासते कवि तेभिर्दुग्धम् प्रविवा सौम्यम् मध्विन्द्रो बद्धते प्रथते मृषायते मृषाभो अंसर्न किला ऋषाधनेलाभन्तः सरविस्वरासीताः दैवत्येव महासाचारावस्थनयश्च ग्रावा नो अजुषध्वमध्वरम् ऋजिलासो अद्रायो श्रमणाधिता अमृत्यवः अनातुरा अजदास्तामाविष्णवस्तु देवसो अदृषिता अदृष्णजः ध्रुवा एव पितरो युगे युगे क्षेमकामासदासो न युञ्जते अजुर्यासो हरिणाचो हरिद्रभाद्याम् रवेण पृथिवीमा सुश्रवः कचिद्वादन्त्यद्रायो विमोचने रामन्नञ्जस्पा जीवभेदो बब्धिभिः अपन्तो बीजामिव धान्यागृहन्ति वत्सदः श्रुते अध्वरे अधिवाचामक्रदा क्रीडयो न मातरम् सुगन्धाः विषुमन्दासुषुकृषो मनीषाम् विवर्तन्तामद्रायश्चायमानाः